देवीं वाचमजनयन्त देवाः तां विश्वरूपाः पशवो वदन्ति सा नो मन्द्रेशमोर्जन्दुहाना धेनुर्वागस्मानुपसुष्टुतैतु यद्वाग्वदं च विचेतदानि राष्ट्रे देवानान्निषसादमन्द्रा चतस्र ऊर्जन्दुदुहे पयागुंसि क्व स्विदस्याः परमं जगाम अनन्तामन्तादधिनिर्मितां महीम् यस्यां देवा अदधुर्भोजनानि एकाक्षरान् द्विपदागुं षट्पदां च वाचं देवा उपजीवन्ति विश्वे वाचं देवा उपजीवन्ति विश्वे वाचं गन्धर्वाः पशवो मनुष्याः वाचि मा विश्वा भुवनान्यर्पिता सा नो हवञ्जुषदामिन्द्रपत्नी वागक्षरं प्रथमजारृतस्य वेदानां मातामृतस्य नाभिः सा नो जुषाणोपयज्ञमागात् अवन्दे देवे सुहवा मे अस्तु या मृषयो मन्त्रकृतो मनीषिणः अन्वैच्छन् देवास्तपसाश्रमेण तान् देवीं वाचगुं हविषाय जामहे सा नो दधातु सुकृतस्य लोके चत्वारि वाक्परिमिता पदानि तान् विदुर्ब्राह्मणा ये मनीषिणः गुहात्रीणि निहिदानेऽङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति।